ओम नमो भगवते वासुदेवाय। अथ द्विपञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच, इत्थं सोऽनुगृहीतोऽङ्गकृष्णेनेक्ष्वाकुनन्दनः तं परिक्रम्य सन्नम्य निश्चक्रामगुहामुखात्। सवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्वनस्पतीन्। मत्वा कलियुगम् प्राप्तम् जगामदिशमुत्तराम्। तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः। समाधाय मनः कृष्णे प्राविशद्गन्धमादनम्। बदर्याश्रममासाद्य नरनारायणालयम्। सर्वद्वन्द्वसः शान्तस्तपसाराधयद्धरिम्। भगवान् पुनराव्रज्य पुरीम् यमनवेष्टिताम्। हत्वा म्लेच्छबलम् निन्ये तदीयम् द्वारकाम् धनम्। नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः। आजगामजरासन्धस्त्रयोविंशत्यनीकपः। विलोक्य वेगरभसम् रिपुसैन्यस्य माधवौ। मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम्। विहाय वित्तम् प्रचुरमभीतौ भीरुभीतवत्। पद्भ्याम् पद्मपलाशाभ्याम् चेलतुर्बहुयोजनम्। पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली। अन्वधावत् रथानीकैरीशयोरप्रमाणवित्। प्रदृत्य दूरम् संश्रान्तौ तुङ्गमारुहताम् गिरिम्। प्रवर्षणाख्यम् भगवान् नित्यदा यत्र वर्षति। गिरौ निलीना वाग्याय नाधिगम्य पदम् नृप। ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन्। तत उत्पत्य तरसा दह्यमानतटादुभौ। दशैकयोजनोत्तुङ्गान् निपेततु रथो भुवि। अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ। स्वपुरम् पुनरायातौ समुद्रपरिखाम् नृप। सोऽपि दग्धा वितिमृषा मन्वानो बलकेशवौ। बलमाकृष्य सुमहन्मगधान् माघधो ययौ। आनर्ताधिपतिः श्रीमान् रैवतो रेवतीम् सुताम्। ब्रह्मणा चोदितः प्रादात् बलायेति पुरोदितम्। भगवानपि गोविन्द उपयेमे कुरुद्वः। वैदर्भीम् भीष्मकसुताम् श्रियो मात्राम् स्वयंवरे। प्रमथ्यतरसाराज्ञः शाल्वादींश्चैद्यपक्षकान्। पश्यताम् सर्वलोकानाम् तार्क्ष्यपुत्रः सुधामिव। राजोवाच, भगवान् भीष्मकसुताम् रुक्मिणीम् रुचिराननाम् राक्षसेन विधानेन उपयेम इति श्रुतम्। भगवन् श्रोतुमिच्छामि कृष्णस्यामित तेजसः। यथा मागतशाल्वादीन् जित्वा कन्यामुपाहरत्। ब्रह्मन् कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः। को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः। श्रीशुक उवाच, राजासीत् भीष्मको नाम विदर्भाधिपतिर्महान्। तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना। रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः। रुक्मकेशो रुक्ममाली रुक्मिणीयेषाम् स्वसा सती। सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः। गृहागतैर्गीयमानास्तम् मेने सदृशम् पतिम्। ताम् बुद्धिलक्षणौतार्य रूपशीलगुणाश्रयाम्। कृष्णश्च सदृशीम् भार्याम् समुद्वोढुम् मनोदधे। बन्धूनामिच्छताम् दातुम् कृष्णाय भगिनीम् नृप। ततो निवार्य कृष्णद्विट् रुक्मी चैद्यममन्यत। तदवेत्यासितापाङ्गी वैदर्भी दुर्मनाभृशम्। विचिन्त्याप्तम् द्विजम् कञ्चित् कृष्णाय प्राहिणोद्रुतम्। द्वारकाम् स समभ्येत्य प्रतीहारैः प्रवेशितः। अपश्यदाद्यम् पुरुषमासीनम् काञ्चनासने। दृष्ट्वा ब्रह्मण्यदेवस्तम् अवरुह्य निजासनात्। उपवेश्यार्हयाञ्चक्रे यथात्मानम् दिवौकसः। तम् भुक्तवन्तम् विश्रान्तमुपगम्य सताम् गतिः। पाणिनाभिमृशन् पादा वव्यग्रस्तमपृच्छत। कच्चिद्विजवरश्रेष्ठधर्मस्ते वृद्धसम्मतः। वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा। सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित्। अहीयमानः स्वाद्धर्मात् स यस्याखिलकामधुक्। असन्तुष्टो स क्रिल्लोका नाप्नोत्यपि सुरेश्वरः। अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः। विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुरित्तमान्। निरहङ्कारिणः शान्तान् नमस्ये शिरसा सकृत्। कच्चिद्वः कुशलम् ब्रह्मन् राजतो यस्य हि प्रजाः। सुखं वसन्ति विषये पाल्यमाना समे प्रियः यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया सर्वं नो ब्रूह्य गुह्यं चेत् किं कार्यं करवामते। एवं सम्पृष्ट सम्प्रश्नो ब्राह्मणः परमेष्ठिना लीलागृहीतदेहेन तस्मै सर्वमवर्णयत्। रुक्मिणी उवाच श्रुत्वा गुणान् भुवन सुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् रूपं दृशां दृशिमतामखिलार्थलाभम् त्वय्यच्युता विशति चित्तमपत्रपं मे का त्वा मुकुन्द महति कुलशीलरूप विद्यावयो द्रविणधामभिरात्मतुल्यम् धीरापतिं कुलवती नवृणीत कन्या काले नृसिंह नरलोकमनोभिरामम् तन्मे भवान् खलु वृतः पतिरङ्गजाया मात्मार्पितश्च भवतोऽत्र विभो विधेहि मा वीरभागमभिमर्षतु चैद्यारात् गोमायुवन् मृगपतेर्बलिमम्बुजाक्ष पूर्तेष्टदत्त नियमव्रतदेव विप्र गुर्वर्चनादिभिरलम् भगवान् परेशः आराधितो यदि गदाग्रज एत्य पाणिम् गृह्णातु मे नदमघोषसुतादयोऽन्ये शोभाविनि त्वमजितोद्वहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः निर्मथ्य चैद्यमगधेन्द्रबलम् प्रसह्य माम् राक्षसेन विधिनोद्वह वीर्यशुल्काम् अन्तःपुरान्तरचरीमनिहत्य बन्धूम् स्त्वामुद्वहे कथमिति प्रवदाम्युपायम् पूर्वेद्युरस्ति महती कुलदेवि यात्रा यस्याम् बहिर्नववधूर्गिरिजामुपेयात् यस्याम् घृपङ्कजरजः स्नपनम् महान्तो वाञ्छन्त्युमापतिरिवात्मतमोपहत्यै यर्यम्बुजाक्षनलभेय भवत्प्रसादम् जह्यामसून् व्रतकृशाञ्छत जन्मभिः स्यात्। ब्राह्मण उवाच इत्येते गुह्यसन्देशा यदुदेव मया हृताः विमृश्य कर्तुम् यच्चात्र क्रियताम् तदनन्तरम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाह प्रस्तावे द्विपञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।